सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको निक्षितः शास्त्री। अथ वार्ताः। गत चतुर्विंशति होरासु अविरत वृष्ट्या सम्पूर्णे जम्मू विभागे जलप्लावन कारणेन आपत्स्थितिः समुत्पन्नास्ति। जलप्लावन कारणेन न्यूनातिन्यूनं 10 जनाः मृताः। माता वैष्णोदेवी तीर्थ इत्यस्य तीर्थयात्रा अपि स्थगिता सञ्जातास्ति। प्रचण्ड वृष्ट्या त्रिकूट पर्वत शिखरस्य तीर्थं प्रति मार्गे भूस्खलनेन 6 जनाः गच्छन्तः मृताः, 18 जनाः च व्रणिताः सञ्जाताः। हिमकोटी मार्गः अपि निरुद्धः वर्तते। डोडा मण्डले अपि 4 जनाः मृत्युं प्राप्ताः। जम्मू प्रदेशस्य केषुचित् क्षेत्रेषु विद्युत् आपूर्तिः अन्तर्जाल सेवाश्च बाधिताः सन्ति। आपत्कालीन सेवाः विहाय सर्वे सर्वकारीय कार्यालयाः अद्य पिहिताः भविष्यन्ति। अत्रान्तरे प्रभावित मण्डलेषु उद्धार कार्येषु जलप्लावन संरक्षणेश्च संलग्नाः सर्वकारीयः अधिकारिणाम् अवकाशाः निरस्ताः कृताः। प्रचण्डवृष्टि कारणेन उत्तर रेल समवायेन जम्मूतः जम्मूं प्रति च 18 रेलयानानां सेवा निरस्तीकृताः। कटरा उधमपुर जम्मू रेलस्थानकेषु निरन्तरं प्रचण्डवृष्ट्या विनाशस्थितिः समुत्पन्ना अस्ति। निरस्तानां रेलयानानां विषये अधिकारिणः अवदन् यत् मातृ वैष्णोदेवी देवालयस्य आधारशिबिरात् कटरानगरात् 7, उधमपुरनगरात् 2, जम्मूनगरात् 1 च रेलयानसेवा निरस्तीकृता सन्ति। शिक्षाप्रदाने सर्वकारीय विद्यालयानां महत्वपूर्णं योगदानं वर्तते। सम्पूर्णे हि देशे आहत्य नामाङ्कनेषु प्रायः 50% भागः सर्वकारीय विद्यालयानां वर्तते। ग्राम्यक्षेत्रेषु एषा संख्या अधिका अस्ति, यत्र 66% छात्राः नामाङ्किताः सन्ति। कॉम्प्रिहेंसिव मॉड्यूलर सर्वे एजुकेशन 2025 इत्यस्य अनुसारं राष्ट्रव्यापी रूपेण नामाङ्कनानां प्रायः 32 स्वायत्त अनुदान रहित मान्यता प्राप्त विद्यालयाः सन्ति। वर्तमान शैक्षणिक वर्षे सर्वकारीय विद्यालयेषु विद्यालय शिक्षायाः अनुमानितः प्रतिछात्रं व्ययः प्रायः 63.5 लाख रूप्यकाणि वर्तते, परन्तु तदपेक्षया निजी विद्यालयानां प्रतिछात्रं व्ययः 25,000 अधिकः वर्तते। अद्य गणेशचतुर्थी इति पर्व सम्पूर्णे देशे सोत्साहं परिपाल्यते। राष्ट्रपतिपदासीना श्रीमती द्रौपदी मुर्मू सर्वेभ्यः अस्मिन् अवसरे शुभाशयाः प्रदत्तवती। स्वसन्देशे राष्ट्रपतिः अवदत् यत् अयम् उत्सवः भक्त्या उत्साहेन च आचर्यते। भगवान् गणेशः ज्ञानस्य कल्याणस्य च स्रोतसः रूपेण पूज्यते। एतद् मनसि निध्याय जनाः नूतनस्य आरम्भस्य बाधायाः निवारणस्य च कृते तस्य आशीर्वादं याचन्ते। अयं हि दिवसः भगवतः गणेशस्य जन्मदिवसत्वेन परिपाल्यते, यः हि ज्ञानस्य समृद्धेः सौभाग्यस्य च प्रतीकभूतो वर्तते। विनायक चतुर्थी अथवा गणेश उत्सवः इति नाम्ना अपि प्रसिद्धः अयं दिवसः 10-दिवसीय उत्सवस्य आरम्भं सूचयति। अस्मिन् समये जनाः स्वगृहेषु भगवतः श्रीगणेशस्य मृत्तिका विग्रहान् स्थापयित्वा तेषां पूजां कुर्वन्ति। अयम् उत्सवः गणेशविसर्जनस्य भव्यकार्यक्रमेण सह समाप्तिं याति, यत्र भगवतः गणेशस्य प्रतिमाः जलाशयेषु निमज्जिताः क्रियन्ते, यानि सृष्टेः विघटनस्य च चक्रस्य प्रतीकभूतानि वर्तन्ते। गणपति बप्पा मोर्या इति मन्त्रैः इति घोषैः भजनैः नृत्यैः च सह प्रतिमाः गृहात् मण्डपेभ्यः नदीभ्यः सरोवरेभ्यः समुद्रेभ्यः च भव्ययात्रासु वहन्ति। भाजपा शासित मध्यप्रदेश सर्वकारः अद्य उज्जयिनी नगरे वैश्विक आध्यात्मिक सम्मेलनस्य आयोजनं करोति। पर्यटन मन्त्रालयस्य साहाय्येन पर्यटन विभागेन आयोजितस्य अस्य कार्यक्रमस्य अद्य उद्घाटनं भविष्यति। प्रधानमन्त्री श्रीनरेन्द्रमोदी श्वः स्वाधिकारिक यात्रार्थं जापान देशं प्रयास्यति। श्रीमोदी मासस्यास्य 29 अथ 30 दिनाङ्कयोः जापान देशैव भविष्यति इति वार्ताः।